सर्वेभ्यो नमः स्वागतम् कथवर्के वयं षष्टिविभक्तेः
वाल्यूम् वेरि लो
इदानीं महोदय
सुनाई नहीं दे रहा है कुछ भी
इदानीं महोदय
वी आर एबल टू हियर इट्स ओके
हेलो
श्रूयते वा महोदय
श्रूयते
श्रूयते
अस्तु गतवर्गे वयं षष्टिविभक्तेः तस्य कृते अभ्यासं कृतवन्तः अपि श्लोकान् पठितवन्तः
वाल्यूम् बहुत ही कम है कुछ सुनाई नहीं दे रहा
भवतः पार्श्वे
यू केन् ट्रै लागिङ्ग् आफ् अण्ड् लागिङ्ग् इन् बेक् अगेन् महोदय
एकनिमिषः अस्तु अपि पुरतः पृष्ठतः तस्य कृते वयं अभ्यासं कृतवन्तः अद्य वयं आवश्यकं मास्तु पर्याप्तं धन्यवादः स्वागतं तस्य विषये पठामः अस्तु प्रथमतया अत्र मा ते सङ्गोस्तु इति नाम अस्ति अत्र आवश्यकं मास्तु पर्याप्तं धन्यवादः स्वागतम् इत्येव वयं पठामः अस्तु अत्र एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च अस्तु अत्र कः आचार्यः भवति कः अशोकः भवति कः अनिलः भवति कः प्रकाशः भवति
ऐ केन् गो फार् आचार्यः
ऐ केन् गो फार् अशोकः
अस्तु अनिलः अपि प्रकाशः करोति अस्तु कुर्वन्तु आरम्भं
आचार्यः नमो नमः अद्य गीतापठनम् आवश्यकं किम्
अशोकः आम् आवश्यकं निश्चयेन आवश्यकम् आचार्य गीतापठनार्थं किं किम् आवश्यकम्
गीतापुस्तकम् आवश्यकम् अनिलः
लिपिज्ञानम् आवश्यकं किम्
आम् लिपिज्ञानम् आवश्यकम्
कृष्णफलकम् आवश्यकं किम्
कृष्णफलकं मास्तु प्रकाशः
मम उच्चारणदोषः अस्ति भवतः साहाय्यम् आवश्यकम् आचार्य
भयं मास्तु अहं साहाय्यं करोमि
प्रकाशः श्लोकानां कण्ठस्थीकरणम् आवश्यकं किम्
मास्तु प्रतिदिनं पारायणं पर्याप्तं तेन स्वयमेव श्लोकाः कण्ठस्थाः भवन्ति भवतः गीतापुस्तकम् आवश्यकं किम्
प्रकाशः मम मास्तु गोविन्दस्य आवश्यकं मम गृहे व्याख्यानसहितं पुस्तकम् अस्ति, आनयामि किम्?
मास्तु, मूलमात्रं पर्याप्तम्। मूलमात्रं पर्याप्तम्।
धन्यवादः।
स्वागतम्।
अस्तु आचार्य।
स्वागतम्।
अत्र प्रथमतया नमो नमः। अद्य गीतापठनम् आवश्यकं किम्? अद्य गीतायाः पठनं कुर्मः वा इति। आम् अशोकः, आम् वयं कुर्मः, निश्चयेन आवश्यकम्। आचार्य, गीता पठनार्थं किं किम् आवश्यकम्?
भगिनि,
आं भगिनि,
आवश्यकम् अर्थं नेसेसरि वा भगिनि?
नीड् ओर् नेसेसरि?
धन्यवादः भगिनि।
गीतापुस्तकम् आवश्यकम् नाम गीतापुस्तकम्
अस्ति। This word avashyakam has got many meanings. Adya Gita Patanam avashyakam means, do you want to do Gita Patanam today?
Do we need to?
And then they are saying, yeah, do we need to do? And then they are saying, am avashyakam. And then for doing Gita Patanam, they are checking what are all the things that you need. Gita Pustakam avashyakam. You know, you need the Gita book. Lipignyanam avashyakam kim. Do you need to be able to read the script? Then Krishna Palakam avashyakam kim? Do you need a blackboard?
No.
Mastu. Krishna Palakam mastu. It is not necessary. Mama Uchcharana doshaha asti. I cannot speak properly. I speak with defects. Bhavataha sahayam avashyakam acharya. Now it say, I need your help. Over to you, Bhagini.
Asma Mahadi. Atra, Mama Uchcharana doshaha asti. Mama Uchcharane doshaha santi. Bhavatah sahayam avashyakam iti. Bhayam mastu. Bhitihi mastu iti. Am sahayam karomi. I will help you. Shlokanam kantasti karanam avashyakam kim? Do we need to memorize the shlokas? Masu. Pratidinam parayanam pariyaptam. Tena swayameva shlokaha kantasthaha bhavanti. Bhavataha gita pusakam avashyakam kim? Astu. Masu. No. Pratidinam parayanam pariyaptam. If we say daily, that is enough. आम् तेन स्वयमेव श्लोकाः कण्ठस्थाः भवन्ति. इन् दट् वे बै दट् ओन्ली आल् द श्लोकास् विल् बि मेमरैस्ड्.
तेन पदम् इस् वाट् तृतीया विभक्ति आर् वाट् इस् द वाट् इस् द तृतीया आफ् सः
एण्ड् इट्स् बहुवचनम् आर् वाट् वचनम् भगिनि?
एकवचनमेव.
एकवचनम्. ओके. एण्ड् वाट् इस् सो हौ डु यु से दोस् भगिनी सेयिङ्ग् आन् सः? हौ डु यु से दोस्? केन् वि से तेभ्यः और् बै हिम् बै देम् तेः रैट्?
किन् यु गिव् एन् एक्साम्पल् आफ् व्हाट् यु वांट् टु से?
ओके. दोस् दोस् चिल्ड्रन् आर् प्लेयिङ्ग्.
ते बालकाः क्रीडन्ति.
ओके.
ते बालकाः क्रीडन्ति.
बट् ते बालकाः. ओके.
के गुरु
सः तौते
सः तौते. सो दोस् हौ डु यु से दोस् ट्रीस्?
ते वृक्षाः.
ते वृक्ष.
They are singing. How do you say they are singing? Again, te.
ते बालकाः गायन्ति. So there is no transformation there. All of them are first vibhakti only.
Okay, then what does tani mean? Tat is that.
Tatya tani, neuter.
Tatya
tani. But what does tani mean? See, in English,
tani means
plural
for
tat. That is those, right?
Yes.
Yeah. Those only, yeah.
Yeah, so that's what, those kids, you know, you cannot say tani balakaha.
No.
Yeah, balakaha is pullinga shabdam. No? So you can say saha tau te.
Okay, then vrikshaha. Okay, so vrikshaha is napunsakalingam. So tani vrikshani.
No, vrikshaha is pullingam.
Oh, vrikshaha is, okay. Palakam. Tani palakani. Palakani.
Right? Tani palakani.
अस्तु चिन्ता मास्तु. अस्तु अनन्तरं प्रतिदिनं पारायणं पर्याप्तं, तेन स्वयमेव श्लोकाः कण्ठस्थाः भवन्ति. इत्युक्ते किम्?
दट् इस् वेरि डिफिकल्ट्. तेन मीन्स् बै दट् process or what does tena actually mean truthi
tena swayameva iti vadamah chet palidinam parayanam kurmah chet swayam shlokaah kantastaah bhavanti.
Correct. Swayameva shlokaah kantastaah bhavanti is okay, but this tena is referring to what?
The process of doing it, saying it every day.
Process of saying it every day. Pratidinam parayanam
tena swayameva. Tena swayam.
So this tena is referring to the kriya padam somehow.
Tena swayam. Including myself, like?
Not like that. Astu. Atra, for this part, it is a bit different. Astu. Ekam shaha. So, if we regular sentence, अस्तु अहं भोजनं खादामि. अस्तु. सो हियर् एकनिमिषः. टु सी हौ इट् लिङ्क्स् टु द अस्तु क्रियापदम्. सो इस् ए क्वश्चन् हौ यु थिङ्क् द तेन इस् लिङ्क् टु द क्रियापदम्? आर् यु आस्किङ्ग् हौ दट् इस्?
या, हौ इस् द तेन लिङ्क् टु द पारायणम्?
ओ, पारायणम्. अस्तु. बिकास्
ऐ थिङ्क् दट् इस् वाट् इट् मीन्स्, रैट्? तेन मीन्स् इट् इस् लिङ्किङ्ग् टु द प्रतिदिनं पारायणं, रैट्?
जस्ट् बै दट् आल् द श्लोकास् विल् बि मेमरैज्ड्.
Correct. So is that,
yes, by that,
is that tena what do you call
kriya napunsakalingam? Now ekavachanam.
No, is, yeah, this the undeclinable or words that don't change?
Avyayam.
Is it an avyayam?
No, it's tritiya vibhakti.
But tritiya vibhakti, then it has to be on a nama padam, no? So what is the nama padam?
No, if it is by that,
swayam eva shloka tena
tena tabhyam taihi. So that, right, Dabagini?
Am.
That, those two, thani is those, we just discussed that. Then dvitiya becomes tat, te, thani again, those, that will not change. Then tena
So what is not very clear is, what is the nama padam there?
Tena swayam.
Pratidinam parayanam paryaptam. Okay. Yes. Do you know, shlokanam kantastikaranam avashyakam kim? Do I have to by heart it? You know, mastu. You don't have to by heart. If you practice daily, daily practice is sufficient. By virtue of that, you will memorize it. That is what it is saying that. But yeah, that by virtue of that, how does it refer to a nama padam? What is the nama padam that they are referring
to? Nama padam, it is referring to the pratidinam parayanam.
That pratidinam, but tena is a nama padam only has vibhakti, right? So the pratidinam parayanam is referred to as a nama padam saha or or parayanam is now napumsakalingam. So is it referring to, tena is referring to the parayanam then?
Mastu pratidinam parayanam.
Now that makes sense. Tena might refer to the parayanam, correct?
For that reason, so mastu pratidinam parayanam paryaptam, for that reason, swayameva shlokaha kantastaha bhavanti.
No, ma'am. Can also say it like that. अन्य प्रश्नाः सन्ति वा अत्र? अस्तु, अनन्तरं भवतः गीतापुस्तकम् आवश्यकं किम्? Do you need the Gita Pustakam?
Gita book.
Mama Mastu, I do not need it. Govindasya Avashyakam. Govindaha needs it.
Needs it.
Mama Grihe Vyakhyan Sahitam Pustakam Asti. At my home, I have the book with the
commentary.
Should I bring it? Mastu, Moola Matram Pariyaptam. No, it is not needed. Just the main text will be enough. Astu Acharya, Dhanyavadaha. Astu, Dhanyavadaha, Swagata. You're welcome. Astu. Atra, Prashnaha Santiha. Astu. Ilanin. अस्तु आवश्यकं नाम किम्
नेसेसरि नीड् एसेन्शियल्
मास्तु नाम किं
नाट् नीडेड्
नो
नो नो भगिनि वन् केन् ऐ आस्क् वन् क्वश्चन् हियर्
आमां
सो यु नो बीङ्ग् आन् दट् वर्ड् आनि सो दट् बाय् in Sanskrit, how do you say, we cannot
Saha
say...
Saha Balakaha.
We cannot say Tat Balakaha, right?
No.
Okay, thank you.
So, Saha Balakaha, Saha is like an adjective to Balakaha. So, those have to follow the same Vachanam and Lingam. Vachanam, Lingam and Vibhaktihi.
Read by Sahabalaka. Tat Vriksham, but you can't say. Okay, buddy. You can go back now.
Asha. Anantaram, Pariyaptam Nama?
Enough.
Sufficient.
Anantaram, Dhanyavadaha.
Thanks.
Swagatam nama?
Welcome.
Atra prashnaha santi va? श्रीकृष्णः मातानुगुणं किम् आवश्यकं किं मास्तु इति अत्र सूचितम् अस्ति एतेषां साहाय्येन पृथक् वाक्यानि वदत अस्तु सो वी हेव् टु से इफ् समथिङ्ग् इस् नीडेड् आर् नाट् क्लैभ्यं नाम किम्
लेज़िनेस्
No, klaibhyam is yeah, this is
important.
Being unmanly.
Astu klaibhyam mastu shokah
mastu
mastu chinta
mastu
mastu
phale adhikarah
avashyakam
mastu
avashyakam
phale
adhikarah
mastu mastu
fruits of do you have
work
phale adhikarah mastu
nama kim phale adhikarah nama kim
mean claim on the results of the action.
Astu vimuda bhavah
mastu
mastu
mastu anantaram vyatha
mastu.
What is the meaning of yatha?
Vari
mastu.
Samichinam yuddham
avashyakam. Sometimes it is avashyakam.
Sangam tyaktva karma charanam
avashyakam.
Indriya niyamanam
avashyakam.
Avashyakam
yoga sevanam
avashyakam.
Avashyakam
bhagavad bhajanam
bhajanam avashyakam.
Avashyakam
samichinam. इदानीं वयं क्रियापदस्य विषये पठामः. अस्तु अस्तु इदानीं प्रथमतया पुनीत् महोदय भवान् पठतु.
हस्तः गच्छति रथः गच्छति रथौ गच्छतः रथाः गच्छन्ति पश्यत् पठन् पठत अवगच्छतु. आचार्यः उपदिशति आचार्यौ
उपविशति
उपदिशति उपदेशम्
I think आचार्य उपदिशति मीन्स् इस् टीचिङ्ग् नाट् उपविशति इस् सिट्टिङ्ग्
आचार्यौ उपदिशतः आचार्याः उपदिशन्ति.
एकनिमिषः. अस्तु अत्र बिफोर् वि सा हौ वि हाव् प्रथमपुरुषः मध्यमपुरुषः अण्ड्
उत्तमपुरुषः
उत्तमपुरुषः. इदानीं वि डिड् दट् फर् द नौन्स् लैक् आचार्यः आचार्यौ आचार्याः अनन् त्वं युवां यूयम् अहम् आवां वयं रैट्. नौ वी आर् एडिङ्ग् द क्रियापदं. सो फर् द प्रथमपुरुषः वी हेव् उपविशति उपविशतः उपविशन्ति. सो द क्रियापदं विल् ending t. Asto for the group of kriyapadam we are looking at, the kriyapadam will always end in t. So t taha nti. Asto upadishati upadishatah upadishanti athava gacchati gacchatah gacchanti. Asto इदानीं गोपाल् महोदय भवान् पठतु.
मातुलः तिष्ठति मातुलौ तिष्ठतः मातुलाः तिष्ठन्ति. सचिवः वर्णयति सचिवौ वर्णयतः सचिवाः वर्णयन्ति. मातुलाः इस्
मदर्
अङ्कल् अङ्कल् matulah is uncle. Matulah tishtati means uncle is, you know, tishtati is
sitting.
Matulau tishtataha, two uncles are sitting. Matulah tishtanti, all the uncles are sitting. Sachivah varnayati. Sachivah is
describing.
Sachivah. Minister?
No, Sachivah is what? Worker, clerk?
Clerk or minister? Or
he's explaining.
Explaining
or describing?
Explaining. One clerk is explaining. Sachivah varnayataha. Two clerks are explaining. Sachivah varnayanti. All the clerks are explaining.
Maybe not all the clerks, but more than three or more clerks.
More, yeah.
Awesome. Antara Mohan Mahadeya.
Vyuhaha asti. Vyuhau staha. Vyuhaha santi. Tenikaha pashyati. Tenikau pashyataha. Oh, sorry. Sainikaha pashyati. Sainikau pashyataha. Sainikaha pashyanti. Dhiraha mukhyati. Dhirau mukhyataha. Dhiraha mukhyanti. Sitapragnyaha abhinandanti. Sitapragnyau abhinandantaha. Sitapragnyaha abhinandanti. Bhagini vadati, bhaginyo vadataha, bhaginyah vadanti. Gatram sidati, gatre sidataha, gatrani sidanti. Mukham shushyati, mukhe shushyataha, mukhani shushyanti. Indriyam harati, indriye harataha, indriyani haranti.
Astu.
So this is all past tense, right, Bhagini? Laklakaram?
No.
Present.
It's present tense.
Oh, I see. Okay.
If it was past tense, it would have, the forms are different. You say it in past tense. Astu.
Oh, yeah, this is present.
Ashtu. Idaniam, Uttama Purushaha. Priya Bhavani, Bhavati Varato.
Aham Namami, Avam Namavaha, Vayam Namamaha. Aham Gayami, Avam Gayavaha, Vayam Gayamaha. Aham Ganayami, Avam Ganayavaha, Vayam Ganayamaha. Aham Ichami, Avam Ichavaha, Vayam Ichamaha. Aham Vindami, Avam Vindavaha, Vayam Vindamaha. Gayami means singing, Ganayami means counting. Ichami is to desire, wish. Vindami is to finding. I'm finding.
Samicha. Idanim Radha Bhagini, Bhavati Varato.
Surendra Mahodaya. Vam arhati. Yuvam arhatah. Yuyam arhatah. अर्हथ
युवां छात्रः असि
युवां छात्रौ स्तः यूयं छात्राः स्थ त्वम् उपविशति युवाम् उपविशथः यूयम् उपविशथ त्वं कथयसि युवां कथयथः यूयं कथयथ That's मतलब अर्हति means what?
अर्हसि नाम किम्?
What is the meaning of अर्हसि?
Is it deserved, Padini?
Deserve.
डिसर्व् अति भवति अस्तु इदानीम् अत्र अत्र रथः गच्छति इति अस्ति किल एतत् प्रथमपुरुषे अस्ति एतदेव प्रथमपुरुषे वदन्तु मध्यमपुरुषे वदन्तु उत्तमपुरुषे वदन्तु अस्तु पुनीत् महोदय भवान् वदति वा
Which one? Fill in the blanks, is it?
No, Mohodaya. So, we just read through these pages, right, Mohodaya? For the examples. So, if you take the first example, Rataha Gacchati, right?
Yeah.
So, this is in Pratama Purushaha. So, just for practice, we'll put it in Pratama Purusha, Madhyama Purusha, and Uttama Purusha. I'll do an example. Rataha Gacchati. रतौ गच्छतः रताः गच्छन्ति दिस् इस् प्रथमपुरुषः मध्यमपुरुषः त्वं गच्छसि रैट् यु हेव् टु फालो दीस् फार्म्स् त्वं गच्छसि युवां गच्छतः यूयं गच्छथ एण्ड् देन् यु डु उत्तमपुरुषः अहं गच्छामि आवां गच्छावः वयं गच्छामः अस्तु
ओके ओके
So, can you just for the next one?
Acharya upadishati, acharya upadishatah, acharyah upadishanti, tvam upadishasi, yuvam upadishatah, yuyam upadishanti.
Upadishat.
Upadishat.
Yuyam.
Upadishat.
Yuyam.
Yuyam upadishat. अहम् यूयम् उपदिशत अहम् उपदिशामि आवाम् उपदिशावः वयम् उपदिशामः श्यामः देन् मातुलः तिष्ठति मातुलौ तिष्ठतः मातुलाः तिष्ठन्ति त्वं तिष्ठसि यूवां तिष्ठितः यूयं तिष्ठितः अहं तिष्ठामि आवां तिष्ठावः वयं तिष्ठामः
इदानीं गोपाल् महोदय भवान् सचिवः करोतु
सचिवः वर्णयति सचिवौ वर्णयतः सचिवाः वर्णयन्ति व्यूहः अस्ति व्यूहौ
सचिवः वर्णयति इति प्रथमपुरुषे अस्ति तदेव मध्यमपुरुषे उत्तमपुरुषे च वदतु महोदय
अहं त्वं त्वं गच्छसि त्वं गच्छसि वर्णयसि त्वं वर्णयसि यूयं गच्छति गच्छतः गच्छति गच्छसि गच्छतः गच्छत वर्णयतः अण्ड् त्वं युवां यूयं वर्णयत अण्ड् वर्णयामि वर्णयावः वर्णयामः
अहं कुत्र सब्जेक्ट्
अहं वर्णयामि आवां गच्छामि गच्छावः अहम् आवां वर्णयावः अण्ड् आवां वयं वर्णयामः Want me to do the next one beginning?
No, इदानीं मोहन् महोदय करोतु.
सैनिकः पश्यति सैनिकः पश्यतः सैनिकः पश्यन्ति त्वं पश्यसि युवां पश्यत यूयं पश्यत धीरः मुह्यति धीरो मुह्यतः धीराः मुह्यन्ति त्वं मुह्यसि मुह्यसि त्वं मुह्यसि युवा मुह्यत यूयं मुह्यतः स्थितप्रज्ञः
नो अहं मुह्यामि
अहं मुह्यामि ओ आल् द त्री ओके अहं मुह्यामि अहम् आवां मुह्य आवां मुह्यामः एण्ड् मुह्यावः वयं मुह्यावः
आवां मुह्यावः
मी वहमः हौ डु यु से
आमि
beginning months if you can scroll down I just so that quickly we can look at it no this is madhyama purusha prathama purusha mi vahamaha so mi vahamaha so uttama purusha is mi vahamaha so aham mukhyami ava mukhyavah vayam mukhyamaha
correct
Ami. It's not me, it's Ami.
No. Yeah, no, last word.
Maha.
That last word, yeah, that is what it is.
Ami. Mishya Maha.
Yeah, Ni Vaha Maha.
Correct.
Yeah, so, Pashyami, Pashyavaha, Pashyamaha.
Yeah.
स्थितप्रज्ञः अभिनन्दन्ति स्थितप्रज्ञौ अभिनन्दन्तः स्थितप्रज्ञाः अभिनन्दन्ति त्वं अभिनन्दसि युवाम् अभिनन्दन्त यूयम् अभिनन्दन्तः अहम् अभिनन्दामि आवाम् अभिनन्दावः वयम् अभिवन्दामः भगिनी वदति भगिन्यौ वदतः भगिन्यः वन्दन्ति वयं वन्दति त्वं वन्दसि युवां वन्दत यूयं वन्दतः अहं सारि वदतः अहं वदामि आवां वदावः वयं वदामः. नेक्स्ट् आल्सो भगिनि
न अस्तु. So like this, please practice like with any, the rest aham gayami iti, you can do it in all the three purusha.
Nivaha maha sitaha cha
as so atra ekanimsha. अस्तु, दृश्यते वा?
आं भगिनि.
अस्तु, इदानीं पुनः वयम् अत्र अभ्यासं कुर्मः. दृश्यते किल? स्यूतः प्रथमतया सुरेन्द्रमहोदय भवानेव करोतु. पुनः वदतु महोदय.
स्यूतः अस्ति, स्यूतौ स्तः, स्यूताः सन्ति.
इदानीं मध्यमपुरुषे अपि उत्तमपुरुषे वदतु महोदय.
Beginning, what are you supposed to... Okay, next one?
No. Surendra Mahadev Bhavan.
I couldn't get you. What actually I have to do?
Tanim Siyutaha Asti, Siyuta Ustaha, Siyutaha Santi. Asto. Never mind, just leave this one. Anantaram. गोपाल् महोदय भवान् वदतु.
दिस् वन् इस् बालाः उपविशन्ति. यु वाण्ट् स्यूतः आर् बालाः भगिनि?
बालाः.
बालाः उपविशन्ति, सो इट् विल् बि बालः उपविशति, बालौ उप उपविशतः बालाः उपविशन्ति. अश्वः धावति, अश्वौ धावतः, अश्वाः धावन्ति. डु द नेक्स्ट् वन् भगिनि.
अस्तु, अत्र अश्वाः धावन्ति, अत्र अश्वः धावति, अश्वौ धावतः, अश्वः. अत्र मध्यमपुरुषे च उत्तमपुरुषे च भवने वदतु.
त्वं धावसि युवां धावतः यूयं धावत अण्ड् त्वम् उपविशसि युवाम् उपविशतः यूयम् उपविशत अहम् उपविशामि आवाम् उपविशावः वयम् उपविशामः अण्ड् अहं धावामि आवां धावावः वयं धावामः
समीचीनं महोदय अस्तु इदानीं पुनीश् महोदय भवान् करोतु
अश्वहरे धेनुरे धेनु चरति धेनु चरतः धेनु धेनाः चरन्ति
धेनवः
धेनवः नेक्स्ट् वन् फलं पतति फले पतितः फलानि पतन्ति देन् मध्यमपुरुष फलं त्वं पतति युवां पतितः यूयं पतन्ति
पतत्
यूयं पतति ओके पतति देन् नेक्स्ट् उत्तमपुरुष अहं पतामि आवां पतावः वयं पतामः
समीचीनम् अस्तु इदानीं मोहन् महोदय भवान् वदतु
ओके बालौ क्रीडति बालः क्रीडति बालौ क्रीडतः बालाः क्रीडन्ति त्वं क्रीडसि युवां क्रीडतः यूयं क्रीडत त्वं क्रीडति त्वं युवां क्रीडतः यूयं क्रीडन्ति यूयं क्रीडत अहं क्रीडामि वयम् अहम् आवां क्रीडावः वयं क्रीडामः
वयं क्रीडामः अस्तु
नीवहमः कीतः च
अनन्तरं नरसिंहमूर्तिमहोदय भवान् वदति वा
नर्तकी नृत्ययति नर्तकौ नृत्ययतः नर्तक्याः नृत्ययन्ति सैनिकः आरोहति सैनिकौ आरोहतः सैनिकाः आरोहन्ति नर्तकी त्वं नृत्ययसि युवां नृत्यतः यूयं नृत्यत् अहं नृत्यामि आवां नृत्यावः वयं नृत्यामः सैनिकः आरोहति त्वम् आरोहसि युवाम् आरोहत् आरोहतः युवाम् आरोहत् अहम् आरोहामि, आवां हारयामि, वयं हारामः, हारामः.
पुनः उत्तमपुरुषः एव चिन्तयित्वा वदतु महोदय.
अहम् आरोहामि, आवाम् आरोहति, आरोहामि, आवाम् आरोहामि, आरोहावः, आरोहामः.
One question here. Yeah, so, you know, I don't know if this would be applicable. You know, initially they would teach us me vahamaha sitahata sitaha anti. That would be applicable here, right? That we can use it, right? Mm-hmm. Me vahamaha sitahata sitaha anti.
अस्तु. अनन्तरं प्रिया भगिनी भवती प्रयत्नं करोति वा?
आं भगिनि. भक्तः प्रयच्छति, भक्तः प्रयच्छति, भक्तौ प्रयच्छतः, भक्ताः प्रयच्छन्ति. प्रयच्छति अर्थं किं भगिनि? भक्तः प्रयच्छति, अहं प्रयच्छामि, आवां प्रयच्छावः, वयं प्रयच्छामः, त्वयं सोरि त्वं प्रयच्छसि, युवां प्रयच्छतः, प्रयच्छतः यूयं प्रयच्छत, तुष्टाः प्रणश्यन्ति, दुष्टः प्रणश्यति, दुष्टौ प्रणश्यतः, दुष्टाः प्रणश्यन्ति. प्रणश्यन्ति अर्थं किं भगिनि? अर्थं किं भगिनि प्रणश्यति?
I think someone said it, right?
I didn't hear, bhagini, if you can repeat, please.
दुष्टाः प्रणश्यन्ति.
Destroyed or wiped off?
Destroyed. Go away. Evil people perish.
Perish, yeah.
Okay, destroyed. Aham pranashyami, avam pranashyavaha, vayam pranashyamaha, tvam pranashyasi, avam pranashyataha, त्वं प्रणश्यसि, युवां प्रणश्यावः, सारि भगिनि, त्वं प्रणश्यसि, युवां प्रणश्यतः, यूयं प्रणश्यत. नृपः तुष्यति, तुष्यति, नृपौ तुष्यतः, नृपाः तुष्यन्ति. अहं तुष्यामि, आवां तुष्यावः, वयं तुष्यामः, त्वं तुष्यसि, यूवान् तुष्यतः यूयं तुष्यत
अत्र स्थगयतु भगिनि इदानीं पुनीत् महोदय भवान्
एषा कुप्यति एते कुप्यतः एताः कुप्यन्ति मध्यमपुरुष त्वं कुप्यसि यूवां कुप्यतः यूयं कुप्यत् उत्तमपुरुष अहं कुप्यामि आवां कुप्यामः 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 वयं कुप्यामः नेक्स्ट् एषा शोचति एते शोचितः एताः शोचन्ति
एषः न पुल्लिङ्ग
ओके एषः ओके करेक्ट् एषः शोचति एतौ शोचति शोचितः एते शोचन्ति मध्यमपुरुष त्वं शोचसि यूवां शोचितः यूयं शोचित् उत्तमपुरुष अहं शोचामि आवां शोचावः वयं शोचामः
अस्तु इदानीम् अत्र प्रश्नाः सन्ति वा प्रश्नाः न सन्ति चेत् अग्रे गच्छामि अत्र बालकः अस्ति बालकौ स्तः बालकाः सन्ति हियर् वि आर् जस्ट् मेकिङ्ग् सेण्टेन्सेस् वट् वि हेव् बीन् गिवन् द वर्ड् एण्ड् द क्रियापदं वि जस्ट् हेव् टु मेच् द सोरि वचनं अस्तु अस्तु प्रथमतया कः तव का करोति
वाट् इस् दि एक्सर्सैज् भगिनि
वि हाव् टु मेच् द क्रियापदं with the kriya padam and the Kriyapadam and the Naam Padam with the correct vachanam.
Shall I say? I can do it. Balakaha Ichyati Balakau Ichyataha Balakaha Ichyanti Balakaha Vadati Balakau Vadataha Balakaha Vadanti. So, shall we continue next one? Mitram? Mitram Asti Mitre Staha Mitrani Santi. So, Mitram Ichchati Mitre Ichchataha Mitrani Ichchanti. Mitram Vadati Mitre Vadataha Mitrani Vadanti. Balika Asti Balike Staha Balikaha Santi. Balika Ichyati Balike Ichyataha Balikaha Ichyanti. Balika Vadati Balike Vadataha Balikaha Vadanti.
Kahavati
Aham Madami. Bhavati Ichyati Bhavatyau Ichyataha Bhavatyaha Ichyanti. Bhavati Vadati Bhavatyau Vadataha Bhavatyaha Vadanti. Saha Ichyati Saha Ichyataha Saha Ichyanti. Saha Vadati Tau Vadataha Te Vadanti.
You know, one quick question. So what was the previous word, Mahoday?
Bhavan.
Okay, no, because I heard Saha Vadanti, so that's
Saha Tau Te. So that is Saha Ichyati Tau Ichyataha Te Ichyanti.
Samichinam.
Tat Ichyati Te Ichyataha Tani Ichyanti. Tat Vadati Te Vadataha Tani Vadanti. Tat Asti
Irani Mohan Mohatya Bhavan Karoto.
Okay. Tat from Tat, right?
Eshaha.
Eshaha vadati Eshaha asti etau staha ete santi. Here it is. Okay, then Esha asti ete staha etaha santi. Munihi vadati muni vadataha munayaha vadanti. Guruhu guru gurava guruhu vadati guru vadataha gurava vadanti. Pita pitarau pitaraha pita again, all this I'm just doing vadati, or can we do some asti?
You can choose any.
Anything.
Okay.
Pita,
any, your choice.
Pita asti, pitarau staha, pitaraha santi. Mata matarau mataraha. माता अस्ति मातरौ स्तः मातरः सन्ति ऐ केनाट् लुक् बियाण्ड् दिस् पेज्
अस्तु सुरेन्द्रमहोदय भवान् करोतु
भगिनी केन् यु मूव् द पेज् प्लीस्
सारि सारि
व्यक्तिः वदति व्यक्ति वदतः व्यक्तयः वदन्ति धेनुः अस्ति धेनुस्तः धेनवः सन्ति वधुः अस्ति वध्वौ स्तः वध्वः सन्ति वधु वदति वध्वौ वदतः वध्वः वदन्ति करेक्ट्
इदानीं त्वम् असि सो विषये त्वम् असि त्वं गच्छसि त्वं वससि इति प्रिया भगिनी भवती करोतु
त्वम् असि युवां स्तः यूयं स्तः त्वं गच्छसि युवां गच्छतः यूयं गच्छत त्वं वससि त्वं वससि युवां वसतः यूयं वसत उत्तमपुरुषः अहम् अस्मि आवां स्वः वयं स्मः अहं गच्छामि आवां गच्छामः वयं गच्छामः अहं वसामि आवां वसावः वयं वसामः
समीचीनम् Soon these are the regular kriya padani. Soon there are exceptions. So these are the exceptions. So this first part Punit Mahodaya Bhavan.
Vartamana kale vishesha kriya padani ekavachana prayogah yatha uchchaiva patata जानीत च कः जानाति का करोति भवान् छिनोति होता जुहोति एषः क्रीणाति एषा शक्नोति मित्रं प्राप्नोति दाता ददाति सः गृह्णाति सा शृणोति भीरुः रोदिति एषः बध्नाति प्रथमपुरुषस्य द्विवचनप्रयोगः यथा कः जानाति एकवचनप्रयोगः कौ जानीतः बहुवचनप्रयोगः यथा काः जानन्ति नेक्स्ट् एकवचनप्रयोगः का करोति द्विवचन तौ कु कुरुतः बहुवचनप्रयोगः भवन्तः कुर्वन्ति एकवचनप्रयोगः भवान् चिनोति द्विवचन ते चिनुतः बहुवचन ते चिन्वन्ति एकवचन होता जुहोति प्रथमपुरुषस्य द्विवचनप्रयोगः होतारौ जुहुतः बहुवचनप्रयोगः होतारः जुहवति नेक्स्ट् प्रथमपुरुषस्य एकवचनप्रयोगः एषः क्रीणाति द्विवचन भवत्यौ क्रीणितः बहुवचनप्रयोगः एताः क्रीणन्ति एकवचनप्रयोगः एषा शक्नोति द्विवचनप्रयोगः एतौ शक्नुतः बहुवचनप्रयोगः भवत्यः शक्नुवन्ति मित्रं प्राप्नोति मित्रे प्राप्नुतः एते प्राप्नुवन्ति दाता ददाति दातारौ दत्तः दातारः ददति सः गृह्णाति मित्रे गृह्णीतः काः गृह्णन्ति सा शृणोति कौ शृणुतः मित्राणि शृण्वन्ति भीरुः रोदिति भीरु रुदितः के रुदन्ति एषः बध्नाति एतौ बध्नीतः एते बध्नन्ति
Bhagini, one quick question. If you go back to the above exercise we just did, so what was the meaning, Bhagini? Why did they kaha, kau, ke, ka, ta, why did they mix and match like this? What was the... See, like
I don't kaha. Know why they mixed and matched it, Mahodaya, but basically we... They are showing us different sentences using the Vishesha Kriya Padani. They don't have the same form as regular ones. That's so, why.
Okay, kaha jani the who knows. Okay, female or bahu. Okay, bahuvachana. Okay, so these are just words that we need to familiarize ourselves.
अस्तु इदानीं चित्रं दृष्ट्वा वाक्यानि रचयत अस्तु अत्र एवरीवन कैन से व्हाट ऑल इज देयर
पुरुषाः वदन्ति महिलौ
पश्यन्ति
वदत्यौ वदन्तौ
Thank you. अस्तु वाट् एल्स् डु यु सी
कुकुरः
शाः सन्ति वृक्षौ स्तः
देवालयः
देवालयम् और् देवालयः भगिनि
देवालयं
देवालयं
निर्वचनम् What do we say for cow is what?
Dhenuh.
Dhenuh. Dhenuh asti. Hastaha.
Eating, no? That,
no, but there are two cows. Dhenuh. Dhenuh.
Dhenuh.
Dhenuh. Dhenuh.
Dhenuh.
Staha.
Kadanti.
Dhenuh staha. There. One is eating, one is not. So,
okay.
Dhenuh staha.
बालकाः
खेलति रन्निङ्ग् न बालक
क्रीडति
धावन् धावत
Is it Balakau Davataha, Bhagini?
Kutra Davataha. Balakau Davataha, Ama. Prishite. Rikshadvayam asti. Atra Kukura hasti. Putra hasti. Parvataha santi.
मन्दिरम् अस्ति
भगिनी सो दीस् टू स्त्रीस् स्त्री इस् वन् स्त्रियौ इस् टु स्त्रियाः इस् मेनि केन् यु से दट्
महिला
स्त्रियः सो स्त्रियौ
I thought that was a special case, Bhagini. Stree, stree, he or something like that. Stree,
striyau, striyaha.
You can use mahila then.
Stree, striyau, striyaha. Okay. Mahila, mahilau.
Mahilaha.
Mahila, mahile.
Mahile, mahilaha.
Shunakaha, asti.
अस्तु
मित्राणि सन्ति स्त्री
एतत् गृहपाठरूपेण कृत्वा आगच्छन्तु पञ्चदशवाक्यानि लिखन्तु अत्र अग्रिमवासरे वयम् एतत् सम्भाषणं पठामः अस्तु also since the website is down it's taking I think it's almost been like 2 to 3 weeks since it's been down in the meanwhile until it comes back I have started to make another just website just for our links so I will finish that today and I'll send it with the recording that's why I didn't send last week's recording so I'll send those in the new website just for our class astu
okay
after the website comes back we will I'll transfer everything into there and that will still be our main website astu
okay
just so that just we have a reference to links so that if someone misses the class you still have a reference astu atastagayamaha dhanyavadah namaskara
dhanyavadah
padini I'm not available for the next 2 weekends, Bhagini, for the class.
Chinta mastu, Bhagini. Thanks for letting me know.
Thank you, Bhagini.
Dhanyavada.
Thank you so much.
Dhanyavada.
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 Hello?